ॐ अस्य श्री गायत्री कवचस्य ब्रह्मा ऋषि गायत्री छन्दो गायत्री देवता ॐ भू रें बीजं भुवः णिं शक्ति स्वयं कीलकं गायत्री प्रसाद सिद्ध्यर्थे जपे विनियोगः अथ ध्यानम् पञ्चवक्त्रां दशभुजां सूर्यकोटि समप्रभां सावित्रीं ब्रह्मवरदां चन्द्रकोटि सुशीतलां त्रिनेत्रां सितवक्त्रांच मुक्ताहार विराजितां वराभयांकुशकुशा हेमपात्राक्षमालिकाः शंखचक्राब्ज युगलं कराभ्यां दधतीं परां सितपंकजसंस्थां च हंसारूढां सुखस्मितां ध्यात्वैवं मानसां भोजे गायत्री कवचं जपेत ब्रह्मोवाच विश्वामित्र महाप्राज्ञ गायत्री कवचं शृणु यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् सावित्री मे शिरः पातु शिखायाममृतेश्वरी ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाम्बके गायत्री वदनं पातु शारदा दशनच्छदौ द्विजान्यज्ञप्रिया पातु रसनायां सरस्वती सांख्यायनी नासिकां मे कपोलो चंद्रहासिनी चिबुकं वेदगर्भाच कंठं पात्वघनाशिनी तनो मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी उदरं विश्वभोक्त्री च नाभो पातु सुरप्रिया जघनं नारसिंह च पृष्ठं ब्रह्माण्डधारिणी पार्श्वो मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकावतु ऊर्वोरूंकाररूपा च जान्वोः सन्ध्यात्मिकावतु जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका सूर्यापदत्वयं पातु चन्द्रापादाङ्गुलीषु च सर्वांगं वेदजननी पातु मे सर्वदानघा इत्येतत् कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् पुण्यं पवित्रं पापघ्नं सर्वरोग निवारणम् त्रिसंध्यं यः पठेत् विद्वान् सर्वान् कामान् वाप्नुयात् सर्वशास्त्रार्थ तत्त्वज्ञः स भवेत् वेदवित्तमः सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात् प्राप्नोति जपमात्रेण पुरुषार्थाश्चतुर्विधान् इति विश्वामित्र संहितोक्तं गायत्रीकवचं सम्पूर्णम्।